अथ दशमोऽध्यायः सङ्घविद्या यतिनो लोकनाथस्य महर्षिरमणस्य च दशमेऽत्र निबध्नीमः संवादम् सङ्घहर्षदम् योगनाथ उवाच साङ्घिकस्य च सङ्घस्य कः सम्बन्धो महामुने सङ्घस्य श्रेयसेनाथ तमेतम् वक्तुमर्हसि भगवानुवाच ज्ञेयः शरीरवत्सङ्घस्तत्तदाचारशालिनाम् अङ्गानीवात्र विज्ञेयाः साङ्घिकाः साधुसत्तमा अङ्गम् यथा शरीरस्य करोत्युपक्रियते तथोपकारम् सङ्घस्य कुर्वन् जयति साङ्घिकः सङ्घस्य वाङ्मनः कायैरुपकारो यथा भवेत् स्वयम् तथा चरन् नित्यम् स्वकीयानपि बोधयेत् आनुकूल्येन सङ्घस्य स्थापयित्वा निजम् कुलम् सङ्घस्यैव ततो भूत्यै कुर्याद्भूतियुतम् कुलम् योगनाथ उवाच शान्तिम् केचित् प्रशंसन्ति शक्तिम् केचिन्मनीषिणः अनयोः को गुणोज्यायाम् सङ्घक्षेमकृते विभो भगवानुवाच स्वमनः शुद्धये शान्तिः शक्तिः सङ्घस्य वृद्धये शक्त्या सङ्घम् विधायोच्चै शान्तिम् संस्थापयेत्ततः योगनाथ उवाच सर्वस्यापि च सङ्घस्य नराणामृषिकुञ्जरा गन्तव्यम् समुदायेन किम् परम् धरणीतले भगवानुवाच समुदायेन सर्वस्य सङ्घस्य तनुधारिणाम् सौभ्रात्रम् समभावेन गन्तव्यम् परमुच्यते सौभ्रात्रेण परा शान्तिरन्योन्यम् देहधारिणाम् तदेयम् शोभते सर्वा भूमिरेकम् गृहम् यथा अभूत् पञ्चदशेघस्रे संवादस्योऽयमष्टमे योगनाथस्य यतिनो महर्षेश्च दयावतः इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे सङ्घविद्या नाम दशमोऽध्यायः अथ एकादशोऽध्यायः ज्ञानसिद्धिसामरस्य कथनम् षोडशे दिवसे रात्रौ विविक्ते मुनिसत्तमम् गुरुम् ब्रह्मविदाम् श्रेष्ठम् नित्यमात्मनि संस्थितम् उपगम्य महाभागम् सोऽहम् कैतवमानवम् रमणम् स्तुतवानस्मि दुर्लभज्ञानलब्धये त्वय्येव परमानिष्ठा त्वय्येव विशदामतिः अम्भसामिव वाराशिर्विज्ञानानाम् त्वमास्पदम् त्वम् तु सप्तदशे वर्षे बाल्य एव महायशः लब्धवानसि विज्ञानम् योगिनामपि दुर्लभम् सर्वे दृश्या इमे भावा यस्य छायामयास्तव तस्य ते भगवन्निष्ठाम् को नु वर्णयितुम् क्षमः मज्जताम् घोरसंसारे व्यावृतानामितस्ततः दुःखम् महत्यतीर्षूणाम् त्वमेका परमा गतिः पश्यामि देवदत्तेन ज्ञानेन त्वाम् मुहुर्मुहुः ब्रह्मण्यानाम् वरम् ब्रह्मन् सुब्रह्मण्यम् नराकृतिम् न त्वम् स्वामिगौनाथ न त्वम् क्षणिकपर्वते न त्वम् वेङ्कटशीलाग्रेशोणाद्रामसि वस्तुतः भूमविद्याम् पुराणाथ नारदाय महर्षये भवान् शुश्रूषमाणाय रहस्यामुपदिष्टवान् सनत्कुमारम् ब्रह्मर्षिम् त्वामाहुर्वेदवेदिनः आगमानाम् तु वेत्तारः सुब्रह्मण्यम् सुदर्शभम् केवलम् नामभेदोऽयम् व्यक्तिभेदो न विद्यते सनत्कुमारस्कन्दश्च पर्यायौ तव तत्त्वतः पुरा कुमारिलो नाम भूत्वा ब्राह्मणसत्तमः धर्मम् वेदोदितम् नाथत्वम् संस्थापितवानसि जैनैर्व्याकुलिते धर्मे भगवन् द्रविडेषु च भूत्वा त्वम् ज्ञानसम्बन्धो भक्तिम् स्थापितवानसि अधुना त्वम् महाभागब्रह्मज्ञानस्य गुप्तये शास्त्रज्ञानेन सन्तृप्तैर्निरुद्धस्यागतोऽधराम् सन्देहा बहवो नाथ शिष्याणाम् वारितास्त्वया इमम् च मम सन्देहम् निवारयितुमर्हसि ज्ञानस्य चापि सिद्धीनाम् विरोधः किम् परस्परम् उदाहो कोऽपि सम्बन्धो वर्तते मुनिकुञ्जरा मयैवम् भगवान् दृष्टो रमणो नुतिपूर्वकम् गभीरया दृशा वीक्ष्य मामिदम् वाक्यमब्रवीत् सहजाम् स्थितिमारूढस्वभावेन दिने दिने तपश्चरति दुर्धर्षम् नालस्यम् सहजस्थितौ तपस्तदेव दुर्धर्षम् या निष्ठा सहजात्मनि तेन नित्येन तपसा भवेत्पाकः क्षणे क्षणे परिपाकेन काले सुसिद्धयस्तातपश्यतः प्रारब्धम् यजिताभिः स्याद्विहारो ज्ञानिनोऽपि च यथा प्रपञ्चग्रहणे स्वरूपान्नेतरन्मुनेः सिद्धयः क्रियमाणाश्च स्वरूपान्नेतरस्तथा भवेन्न यस्य प्रारब्धम् शक्तिपूर्णोऽप्ययम् मुनिः अतरङ्ग इवाम् बोधिर्न किञ्चिदपि चेष्टते नान्यम् मृगयते मार्गम् निसर्गादात्मनिस्थितः सर्वासामपि शक्तीनाम् समष्टिस्वात्मनिस्थितिः अप्रयत्नेन तुलः सहजा स्थितिरुच्यते सहजायाम् स्थितूपाकाच्छक्तीनामुद्भवो मतः परिवृतोऽपि बहुभिर्नित्यमात्मनि संस्थितः घोरम् तपश्चरत्येव नतश्चैकान्तकामिता ज्ञानम् शक्तेरपेतयो मन्यते नैव वेदसः सर्वशक्तेभितः पूर्णे स्वस्वरूपे हि बोधवान् इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे ज्ञानसिद्धिसामरस्य कथनम् नाम एकादशोऽध्यायः अथ द्वादशोऽध्यायः शक्तिविचारः एकोनविंशे दिवसे भारद्वाजो महामनाः कपालीकृतिशुद्ध्याय न पृच्छद्रमणम् गुरुम् कपाल्युवाच विषयी विषयो वृत्तिरितीदम् भगवंस्त्रिकम् ज्ञानिनाम् पामराणाम् च लोकयात्रासु दृश्यते अथ केन विशेषेण ज्ञानी पामरतोऽधिकः इमम् मे नाथ सन्देहम् निवर्तयितुमर्हसि भगवानुवाच अभिन्नो विषयीयस्य स्वरूपान्मनुदर्शभ व्यापारविषयौ भातस्तस्याभिन्नौ स्वरूपतः विभिन्नो विषयीयस्य स्वरूपादभिमानिनः व्यापारविषयौ भातस्तस्य भिन्नौ स्वरूपतः भेदाभासे विजानाति ज्ञान्यभेदम् तु तात्विकम् भेदाभासवशङ्गत्वा पामरस्तु विभिद्यते कपाल्युवाच माथयस्मिन्निमे भेदाभासन्ते त्रिपुटीमयाः शक्तिमद्वास्वरूपम् तदुताहो शक्तिवर्जितम् भगवानुवाच वत्सयस्मिन्निमे भेदाभासन्ते त्रिपुटीमयाः सर्वशक्तम् स्वरूपम् तदाहुर्वेदान्तवेदिनः कपाल्युवाच ईश्वरस्य तु या शक्तिर्गीता वेदान्तवेदिभिः अस्ति वाचलनम् तस्यामाहोऽस्मिन्नाथ नास्ति वा भगवानुवाच शक्तेः सञ्चलनादेव लोकानाम् तातसम्भवः चलनस्याश्रयो वस्तु न सञ्चलति कर्हिचित् अचलस्य तु यच्छक्तेश्चलनम् लोककारणम् तामेवाचक्षते मायामनुर्वाच्याम् विपश्चितः चञ्चलत्वम् विषयिणो यथार्थमिव भासते चलनम् न नरश्रेष्ठस्वरूपस्य तु वस्तुतः ईश्वरस्य च शक्तेश्च भेदो दृष्टिनिमित्तकः मिथुनम् त्विदमेकम् स्यादृष्टिश्चेदुपसंहृता कपाल्युवाच व्यापार ईश्वरस्यायम् दृश्यब्रह्माण्डकोटिकृत् नित्यः किमथवा नित्यो भगवान् वक्तुमर्हति भगवानुवाच निजया परया शक्त्या चलन्नप्यचलः परः केवलम् मुनिसंवेद्यम् रहस्यमिदमुत्तमम् चलत्वमेव व्यापारो व्यापारः शक्तिरुच्यते शक्त्या सर्वमिदम् दृश्यम् ससर्ज परमः पुमान् व्यापारस्तु प्रवृत्तिश्च निवृत्तिरिति च द्विधा निवृत्तिस्था यत्र सर्वमात्मैवा भूदिति श्रुतिः नानात्वम् द्वैतकालस्थम् गम्यते सर्वमित्यतः अभूदिति पदेनात्र व्यापारः कोऽपि गम्यते आत्मैवेति विनिर्देशाद्विशेषाणाम् समन्ततः आत्मन्नेवोपसंहारस्तज्जातानाम् प्रकीर्तितः विना शक्तिम् नरश्रेष्ठस्वरूपम् न प्रतीयते व्यापार आश्रयश्चेति विना मा शक्तिरुच्यते व्यापारो विश्वसर्गादिकार्यमुक्तम् मनीषिभिः आश्रयोद्विपदाम् श्रेष्ठस्वरूपान्नातिरिच्यते स्वरूपमन्यसापेक्षम् नैव सर्वात्मकत्वतः शक्तिम् वृत्तिम् स्वरूपम् च य एवम् वेदवेदसः वृत्तेरभावे तु सतो नानाभावो न सिद्ध्यति सत्ता शक्त्यतिरिक्ता चेद्वृत्तेर्नैव समुद्भवः यदि कालेन भविता जगतः प्रलयो महान् अभेदेन स्वरूपेयम् व्यापारो लीनवद्भवेत् सर्वोऽपि व्यवहारोऽयम् न भवेच्छक्तिमन्तरा न सृष्टिर्नापि विज्ञानम् यदेतत्त्रिपुरीमयम् स्वरूपमाश्रयत्वेन व्यापारः सर्गकर्मणा नामभ्यामुच्यते द्वाभ्याम् शक्तिरेकापरात्परा लक्षणम् चलनम् येषाम् शक्तेस्तेषाम् तदाश्रयः यत्किञ्चित् परमम् वस्तु वक्तव्यम् स्यान्नरर्षभा तदेकम् परमम् वस्तु शक्तिमेके प्रचक्षते स्वरूपम् केऽपि विद्वांसो ब्रह्माण्ये पुरुषम् परे वत्स सत्यम् द्विधा गम्यम् लक्षणेन च वस्तुतः लक्षणेनोच्यते सत्यम् वस्तुतस्त्वनुभूयते तस्मात् स्वरूपविज्ञानम् व्यापारेण च वस्तुतः ತಾಟಸ್ಥೇನ ಚ ಸಾಕ್ಷಾಚ್ಚ ದ್ವಿವಿಧಂ ಸಂಪ್ರಜಕ್ಷತೆ ಸ್ವರೂಪಮಾಶ್ರಯಂ ಪ್ರಾಹುರ್ವ್ಯಾಪಾರಂ ತಾತಲಕ್ಷಣಂ ವೃತ್ಯಾ ವಿಜ್ಞಾಯ ತನ್ಮೂಲಮಾಶ್ರಯೇ ಪ್ರತಿತಿಷ್ಠತಿ ಸ್ವರೂಪಂ ಲಕ್ಷಣೋಪೇತಂ ಲಕ್ಷಣಂ ಚ ಸ್ವರೂಪವತ್ ತಾದಾತ್ಮೇನೈವ ಸಂಬಂಧಸ್ತನಯೋಃ ಸಂಪ್ರಕೀರ್ತಿತಃ ತಟಸ್ಥಲಕ್ಷಣೇನೈವಂ ವ್ಯಾಪಾರಾಖ್ಯೇನ ಮಾರಿಷ ಯತೋ ಲಕ್ಷ್ಯಂ ಸ್ವರೂಪಂ ಸ್ಯಾನ್ನಿತ್ಯವ್ಯಾಪಾರವತ್ತತಃ ವ್ಯಾಪಾರೋ ವಸ್ತು ನೋನಾನ್ಯೋ ಯದಿ ಪಶ್ಯಸಿ ತತ್ತ್ವತಃ ಇದಂ ತು ಭೇದ ವಿಜ್ಞಾನಂ ಸರ್ವಂ ಕಾಲ್ಪನಿಕಂ ಮತಂ ಶಕ್ತ್ಯುಲ್ಲಾಸಾಹ್ವಯಾಸೇಯಂ ಸೃಷ್ಟಿಸ್ಯಾದೀಶ ಕಲ್ಪನಾ ಕಲ್ಪನೇಯಮತೀತಾಯೇಚ್ಛರೂಪಮವಶಿಷ್ಯತೆ ಇತಿ ಶ್ರೀರಮಣ ಗೀತಾಸು ಬ್ರಹ್ಮವಿದ್ಯಾಯಾಂ ಯೋಗಶಾಸ್ತ್ರೇ ರಮಣಾಂತೇ ವಾಸಿನೋ ವಾಸಿಷ್ಠಸ್ಯ ಗಣಪತೇರುಪನಿಬಂಧೇ ಶಕ್ತಿವಿಚಾರೋ ನಾಮ ದ್ವಾದಶೋಧ್ಯಾಯಃ ಅಥ ತ್ರಯೋದಶೋಧ್ಯಾಯಃ ಸಂನ್ಯಾಸೇ ಸ್ತ್ರೀಪುರುಷಯೋಸ್ತುಲ್ಯಾಧಿಕಾರನಿರೂಪಣಂ ಅತ್ರೀಣಾಮನ್ವಯಜ್ಯೋತ್ಸ್ನಾ ವಸಿಷ್ಠಾನಾಂ ಕುಲಸ್ನುಷಾ ಮಹಾದೇವಸ್ಯ ಜನನೀ ಧೀರಸ್ಯ ಬ್ರಹ್ಮವೇದಿನಃ ಪ್ರತಿಮಾನಂ ಪುರಂಧ್ರೀಣಾಂ ಲೋಕಸೇವಾವ್ರತೇ ಸ್ಥಿತಾ ಬಿಭ್ರಾಣಾಮಹತೀಂ ವಿದ್ಯಾಂ ಬ್ರಹ್ಮಾದಿ ವಿಭುಧಸ್ತುತಾಂ ದಕ್ಷಿಣೇ ವಿಂಧ್ಯತಃಶಕ್ತೇ ಸ್ತಾರಿಣ್ಯಾ ಆದಿಮಾ ಗುರುಃ ತಪಸ್ಸಖೀ ಮೇ ದಯಿತಾ ವಿಶಾಲಾಕ್ಷೀ ಯಶಸ್ವಿನೀ ಪ್ರಶ್ನದ್ವಯೇನ ರಮಣಾಃ ವಯಂ ವಿಶ್ವಹಿತಂ ಮುನಿಂ ಅಭ್ಯಗಚ್ಛದ ದುಷ್ಟಾಂಗೀ ನಿಕ್ಷಿಪ್ತೇನ ಮುಖೇ ಮಮ ಆತ್ಮಸ್ಥಿತಾನಾಂ ನಾರೀಣಾಮಸ್ತಿ ಚೇತ್ ಪ್ರತಿಬಂಧಕಂ ಗೃಹತ್ಯಾಗೇನ ಹಂಸೇತ್ವಂ ಕಿಮು ಸ್ಯಾಚ್ಛಾಸ್ತ್ರಸಮ್ಮತಂ ಜೀವಂತ್ಯಾಯೇವ ಮುಕ್ತಾಯ ದೇಹಪಾತೋ ಭವೇದ್ಯದಿ ದಹನಂ ವಾ ಸಮಾಧಿರ್ವಾ ಕಾರ್ಯಂ ಯುಕ್ತಮನಂತರಂ ಪ್ರಶ್ನದ್ವಯಮಿದಂ ಶ್ರುತ್ವಾ ಭಗವಾನ್ ಋಷಿಸತ್ತಮಃ ಅವೋಚಂ ನಿರ್ಣಯಂ ತತ್ರ ಸರ್ವಶಾಸ್ತ್ರಾರ್ಥತತ್ವವಿತ್ ಸ್ವರೂಪೇ ವರ್ತಮಾನಾನಾಂ ಪಕ್ವಾನಾಂ ಯೋಷಿತಾಮಪಿ ನಿವೃತ್ತತ್ವಾನ್ನಿಷೇಧಸ್ಯ ಹಂಸೇತ್ವಂ ನೈವ ದುಶ್ಯತಿ ಮುಕ್ತತ್ವಸ್ಯಾವಿಶಿಷ್ಟತ್ವಾದ್ ಬೋಧಸ್ಯ ಚ ವಧೂರಪಿ ಜೀವನ್ಮುಕ್ತಾನದಾಹ್ಯಾಸ್ಯಾತ್ತದ್ದೇಹೋ ಹಿ ಸುರಾಲಯಃ ಯೇ ದೋಷಾ ದೇಹ ದಹನೇ ಪುಂಸೋ ಮುಕ್ತಸ್ಯ ಸಂಸೃತಾಃ ಮುಕ್ತಾಯಾಃ ಸಂತಿ ತೇ ಸರ್ವೇ ದೇಹದಾಹೇ ಚ ಯೋಷಿತಃ ಏಕವಿಂಶೇನ್ನಿಗೀತೋ ಭೂದಯಮರ್ಥೋ ಮನೀಷಿಣಾ ಅಧಿಕೃತ್ಯ ಜ್ಞಾನಪತೀಂ ರಮಣೇನ ಮಹರ್ಷಿಣಾ ಇತಿ ಶ್ರೀರಮಣ ಗೀತಾಸು ಬ್ರಹ್ಮವಿದ್ಯಾಯಾಂ ಯೋಗಶಾಸ್ತ್ರೇ ರಮಣಾಂತೇ ವಾಸಿನೋ ವಾಸಿಷ್ಠಸ್ಯ ಗಣಪತೇರುಪನಿಬಂಧೇ ಸಂನ್ಯಾಸೇ ಸ್ತ್ರೀಪುರುಷಯೋಸ್ತುಲ್ಯಾಧಿಕಾರನಿರೂಪಣಂ ನಾಮ ತ್ರಯೋದಶೋಧ್ಯಾಯಃ ಅಥ ಚತುರ್ದಶೋಧ್ಯಾಯಃ ಜೀವಂ ಮುಕ್ತಿವಿಚಾರಃ ನಿಶಾಯಾಮೇಕವಿಂಶೇನ್ಹಿ ಭಾರದ್ವಾಜೋ ವಿದಾಂಬರಃ ಪ್ರಾಜ್ಞಶಿವಕುಲೋಪಾಧಿರ್ವೈದರ್ಭೋ ವದತಾಂಬರಃ ಜೀವನ್ಮುಕ್ತಿಂ ಸಮುದ್ದಿಶ್ಯ ಮಹರ್ಷಿಂ ಪರಿಪೃಷ್ಟವಾನ್ ಅಥ ಸರ್ವೇಷು ಶೃಣ್ವತ್ಸು ಮಹರ್ಷಿರ್ವಾಕ್ಯಮಬ್ರವೀತ್ ಶಾಸ್ತ್ರೀಯೈರ್ಲೌಕಿಕೈಶ್ಚಾಪಿ ಪ್ರತ್ಯಯೈರವಿಚಾರಿತಾ स्वरूपे सुदृढा निष्ठा जीवन्मुक्तिरुदाहृता मुक्तिरेकविधैवस्यात्मज्ञानस्याविशेषता शरीरस्थम् मुक्तबन्धम् जीवन्मुक्तम् प्रचक्षते ब्रह्मलोकगतो मुक्तः श्रूयते निगमेषु यः अनुभूतौ न भेदोऽस्ति जीवन्मुक्तस्य तस्य च प्राणाः समवलीयन्ते यस्यात्रैव महात्मनः तस्याप्यनुभवो विद्वन्नेतयोरुभयोरिव साम्यात् स्वरूपनिष्ठाया बन्धहानेश्च साम्यतः मुक्तिरेकविदेव स्याद्भेदस्तु परबुद्धिगः मुक्तो भवति जीवन्यो महात्मात्मनि संस्थितः प्राणाः समवलीयन्ते तस्यैवात्र नरर्षभ जीवन्मुक्तस्य कालेन तपसः परिपाकतः स्पर्शभावोऽपि सिद्धस्याद्रूपे सत्यपि कुत्रचित् भूयश्च परिपाकेन रूपाभावोऽपि सिध्यति केवलम् चिन्मयो भूत्वा ससिद्धो विहरिष्यति शरीरसंशयम् सिद्ध्योर्द्वयमेतम् नरोत्तम अर्थेनापि च कालेन देवतानुग्रहाद्भवेत् वेदमेतम् पुरस्कृत्य तारतम्यम् न सम्पदि देहवान शरीरो वा मुक्त आत्मनि संस्थितः नाडीद्वारार्चिराद्येन मार्गेणोर्ध्वगतिम् नरः तत्रोत्पन्नेन बोधेन सद्यो मुक्तो भविष्यति उपासकस्य सुतराम् पक्वचित्तस्य योगिनः ईश्वरानुग्रहात् प्रोक्ता नाडीद्वारोत्तमा गतिः सर्वेषु कामचारोऽस्य लोकेषु परिकीर्तितः इच्छयानेकदेहानाम् ग्रहणम् चाप्यनुग्रहः कैलासम् केऽपि मुक्तानाम् लोकमाहुर्मनीषिणः एके वदन्ति वैकुण्ठम् परेत्पादित्यमण्डलम् मुक्तलोकाश्च ते सर्वे विद्वन्भूम्यादिलोकवत् चित्रवैभवया शक्त्या स्वरूपे परिकल्पिताः इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे जीवन्मुक्तिविचारो नाम चतुर्दशोऽध्यायः अथ पञ्चदशोऽध्यायः श्रवणमननिधिध्यासननिरूपणम् श्रवणम् नाम किन्नाथमननम् नाम किम् मदम् किम् वा मुनिकुलश्रेष्ठनिधिध्यासनमुच्यते इत्येवम् भगवान् पृष्टो मया ब्रह्मविदाम्बरः द्वाविंशे दिवसे प्रातरब्रवीच्छिष्य संसदि वेदशीर्षस्थवाक्यानामर्थव्याख्यानपूर्वकम् आचार्याच्छ्रवणम् केचिच्छ्रवणम् परिचक्षते अपरे श्रवणम् प्राहुराचार्याद्विदितात्मनः गिराम् भाषामयीनाम् च स्वरूपम् बोधयन्ति याः श्रुत्वा वेदान्तवाक्यानि निजवाक्यानि वा गुरोः जन्मान्तरीयपुण्येन ज्ञात्वा गोभयमन्तरा अहम् प्रत्ययमूलम् त्वम् शरीरादेर्विलक्षणः इदीनम् श्रवणम् चित्ताच्छ्रवणम् वस्तुतो भवेत् वदन्ति मननम् केचिच्छास्त्रार्थस्य विचारणम् वस्तुतो मननम् तातस्वरूपस्य विचारणम् विपर्यासेन रहितम् संशयेन च मानदा कैश्चिद्ब्रह्मात्मविज्ञानम् निजिध्यासनमुच्यते विपर्यासेन रहितम् संशयेन च यद्यपि शास्त्रीयमैक्यविज्ञानम् केवलम् नानुभूतये संशयश्च विपर्यासो निवार्येते उभावपि अनुभूत्यैव वादिष्ठनशास्त्रशतकैरपि शास्त्रम् श्रद्धावरोहण्यात् संशयम् च विपर्ययम् श्रद्धायाः किञ्चिदूनत्वे पुनरभ्युदयस्तयोः मूलच्छेदस्तु वासिष्ठस्वरूपानुभवेतयोः स्वरूपे संस्थितिस्तस्मान्निजिध्यासनमुच्यते बहिः सञ्चरतस्तातस्वरूपे संस्थितिम् विना अपरोक्षो भवेद्बोधो न शास्त्रशतचर्चया स्वरूपसंस्थितिस्याच्चेत् सहजा कुण्डिदर्शः सा मुक्तिः सा परा निष्ठा साक्षात्कारयीरितः इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे श्रवणमननिध्यासननिरूपणम् नाम पञ्चदशोऽध्यायः अथ षोडशोऽध्यायः भक्तिविचारः अथ भक्तिम् समुद्दिश्य पृष्टः पुरुषसत्तमः अभाषतमहाभागो भगवान् रमणो मुनिः आत्मा प्रियः समस्तस्य प्रियम् नेतरदात्मनः अच्छिन्नातैलधारावत् प्रीतिर्भक्तिरुदाहृता अभिन्नम् स्वात्मतः प्रीत्या विजानातीश्वरम् कविः जानन्नप्यपरोभिन्दम् लीन आत्मनि तिष्ठति वहन्ति तैलधारावद्या प्रीतिः परमेश्वरे अनिच्छतोऽपि सा बुद्धिम् स्वरूपम् नयति ध्रुवम् परिच्छिन्नम् यदात्मानम् स्वल्पज्ञम् चापि मन्यते भक्तो विषयिरूपेण तदा क्लेशनिवृत्तये व्यापकम् परमम् वस्तु भजते देवता धिया भजंश्च देवता बुद्ध्या तदेवान्ते समश्नुते देवतायानरश्रेष्ठनामरूपप्रकल्पनात् ताभ्याम् तु नामरूपाभ्याम् नामरूपे विजेष्यति भुक्तौ तु परिपूर्णायामलम् श्रवणमेकदा ज्ञानाय परिपूर्णाय तदा भक्तिः प्रकल्पते धाराव्यपेताया भक्तिः सा विच्छिन्नेति कीर्त्यते भक्तेः परस्याः सा हेतुर्भवतीति विनिर्णयः कामाय भक्तिम् कुर्वाणः कामम् प्राप्याप्यनिर्वृतः शाश्वताय सुखायान्ते भजते पुनरीश्वरम् भक्तिः कामसमेतापि कामाप्तौ न निवर्तते श्रद्धा वृद्धा परे पुंसि भूय एवाभिवर्धते वर्धमाना च सा भक्तिः काले पूर्णा भविष्यति पूर्णया परया भक्त्या ज्ञानेनैव भवन्तरेत् इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे भक्तिविचारो नाम षोडशोऽध्यायः। अथ सप्तदशोऽध्यायः ज्ञानप्राप्तिविचारः पञ्चविंशे तु दिवसे वैदर्भो विदुषाम्बरः प्रश्रयावनतो भूत्वा मुनिम् भूयोऽपि पृष्टवान् वैदर्भ उवाच क्रमेणायाति किम् ज्ञानम् किञ्चित्किञ्चिद्दिने दिने एकस्मिन्नेव काले किम् पूर्णमाभाति भानुवत् भगवानुवाच क्रमेणायाति न ज्ञानम् किञ्चित्किञ्चिद्दिने दिने अभ्यासपरिपाकेन भासते पूर्णमेकदा वैदर्भ उवाच अभ्यासकाले भगवन् वृत्तिरन्तर्बहिस्तथा यातायातम् प्रकुर्वाणा याते किम् ज्ञानमुच्यते भगवानुवाच अन्तर्यातामतिर्विद्वम् बहिराजाति चेत् पुनः अभ्यासमेव तामाहुर्ज्ञानम् ह्यनुभवोच्युरः वैदर्भ उवाच ज्ञानस्य मुनिशार्दूलभूमिकाः काश्चिदीरिताः शास्त्रेषु विदुषाम् श्रेष्ठैः कथम् तासाम् समन्वयः भगवानुवाच शास्त्रोक्ता भूमिकाः सर्वा भवन्ति परबुद्धिगाः मुक्तिभेदा इव प्राज्ञज्ञानमेकम् प्रजानताम् चर्याम् देहेन्द्रियादीनाम् वीक्ष्यारब्धानुसारिणीम् कल्पयन्ति परे भूमिस्तारतम्यम् न वस्तुतः वैदर्भ उवाच प्रज्ञानमेकदा सिद्धम् सर्वाज्ञाननिबर्हणम् तिरोधत्ते किमज्ञानात्सङ्गादङ्कुरितात् पुनः भगवानुवाच अज्ञानस्य प्रतिद्वन्द्विनपरा भूयते पुनः प्रज्ञानमेकदा सिद्धम् भरद्वाजकुलोद्वः इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्ते वासिनो वासिष्ठस्य गणपतेरुपनिबन्धे ज्ञानप्राप्तिविचारो नाम सप्तदशोऽध्यायः अथ अष्टादशोऽध्यायः सिद्धमहिमानुकीर्तनम् वरपराशरगोत्रसमुद्भवम् वसुमतीसुरसङ्घयशस्करम् विमलसुन्दरपण्डितनन्दनम् कमलपत्रविशालविलोचनम् अरुणशीलगताश्रमवासिनम् परमहंसमनञ्जनमच्युतम् करुणया दधतम् व्यवहारिताम् सततमात्मनि संस्थितमक्षरे अखिलसंशयवारणभाषणम् भ्रममरद्विरदाङ्कुशवीक्षणम् अविरतम् परसौख्यधृतोद्यमम् निजतनूविषयेष्वलसालसम् परिणताम्रफलप्रभविग्रहम् चलतरेन्द्रियनिग्रहसग्रहम् अमृतचिद्धनवल्लिपरिग्रहम् वितवचोरचितागमसङ्ग्रहम् अमलदीप्ततरात्ममरीचिभिः निजकरैरिव पङ्कजबान्धवम् पदजुषाम् जडभावमनेहसा परिहरन्तमनन्तगुणाकरम् मृदुतमम् वचने दृशिशीतलम् विकसितम् वदने सरसीरुहे मनसि शून्यमहशशिसन्निभे हृदि लसन्तमनन्त इवारुणम् अदयमात्मतनौ कठिनम् व्रते परुषचित्तमलम् विषयव्रजे ऋषिमरोषमपेतमनोरथम् धृतमदङ्घनचिल्लहरीवशात् विगतमोहमलोभमभावनम् शमितमत्सरमुत्सविनम् सदा भवमहोदधितारणकर्मणि प्रतिफलेन विनैव सदोद्यतम् मातामेति नगराजसुतोरुपीठम् नागानने भजति याहि पितामहेति अङ्कम् हरस्य समवाव्यशिरस्य नेना सञ्चुम्बितस्य गिरिरम्भकृतो विभूतिम् वेदादिपाकदमनोत्तरकच्छपेशैः युक्तैर्धराधरसुषुप्त्यमरेश्वरैश्च सूक्ष्मामृता युगमृतेन सह प्रणत्या सम्पन्नशब्दपटलस्य रहस्यमर्थम् दण्डम् विनैव यतिनम् भतदण्डपाणिम् दुःखाभ्युतारकमरिम् भततारकस्य त्यक्त्वा भवम् भवमहो सततम् भजन्तम् हंसम् तथापि गतमानससङ्गरागम् धीरत्वसम्पति सुवर्णगिरेरनूनम् वारान्निधेरधिकमेव गभीरतायाम् शान्तौ जयन्तमचलामखिलस्य धात्री दान्तौ निदर्शनमशान्तिकथादविष्ठम् नीलारविन्दसुहृदा सदृशम् प्रसादे तुल्यम् तथा महसितो यजबान्धवेन ब्राह्म्याम् स्थितौ तु वितरम् वटमूलवासम् संसारयन्तमचलन्तमनूदितम् मे यस्याधुनापि रमणीरमणीयभावा गीर्वाणलोकभृतनाशुभवृत्तिरूपा संशोभते शिरसि नापि मनोजगन्धः तत्तादृशम् गृहीणमप्यधिपम् यतीनाम् त्वन्दारुलोकवरदम् नरदन्तिनोऽपि मन्त्रेश्वरस्य मातो गुरुताम् महन्तम् मन्दारवृक्षमिव सर्वजनस्य पादत् छायाम् श्रितस्य परितापमपाहरन्तम् यस्तन्त्रवार्तिकमनेकविचित्रयुक्ति संशोभितम् निगमजीवनमातताना भट्टस्य तस्य बुधसंहतिसंस्तुतस्य वेषान्तरम् तु निगमान्तवचो विचारी वेदशीर्षजयसारसङ्ग्रहम् पञ्चरत्नमरुणाचलस्य यः गुप्तमल्पमपि सर्वतो मुखम् सूत्रभूतमतनोदिमम् गुरुम् देववाचि सुतरामशिक्षितम् काव्यगन्धरहितम् च यद्यपि ग्रन्थकर्मणि तथापि संस्फुरत् भाषितानुचरभावसञ्चयम् लोकमातृकुचलुग्धपायिनः शङ्करस्तव कृतो महाकवेः द्राविडद्विजशिशोर्नटद्गिरो भूमिकान्तरमपारमेधसम् भूतलेद्विह तृतीयमुद्भवम् क्रौञ्च भूमिधररन्ध्रकारिणः ब्रह्मनिष्ठितदशाप्रदर्शनात् युक्तिवादतिमिरस्य शान्तये कुम्भयोनिमुखमौनि पूजिते द्राविडे वचसि विश्रुतम् कविम् दृष्टवन्तमजरम् परम् महः केवलम् धिषणया गुरुम् विना बालकेऽपि जडगोपकेऽपि वानरेऽपि शुनिवाखलेऽपि वा पण्डितेऽपि पदसंशितेऽपि वा पक्षपातरहितम् समेक्षणम् शक्तिमन्तमपि शान्तिसंयुतम् भक्तिमन्तमपि भेदवर्जितम् वीतरागमपि लोकवत्सलम् देवतांशमपि नम्रचेष्टितम् एष यामि पितुरन्तिकम् ममान्वेषणं तु न विधीयतामिति संविलिख्य गृहतो विनिर्गतम् शोणशैलचरणम् समागतम् ईदृशम् गुणगणैरभिरामम् प्रश्रयेण रमणम् भगवन्तम् सिद्धलोकमहिमानमपारम् पृष्टवानमृतनाथयतीन्द्रः आहतम् स भगवानगवासी सिद्धलोकमहिमा तु दुरूहः ते शिवेन सदृशाः शिवरूपाः शक्नुवन्ति च वराण्यपि दातुम् इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे सिद्धमहिमानुकीर्तनम् नाम अष्टादशोऽध्यायः हरिः ॐ